ीर्वन्तस्फुतायिमे वायोतान् प्रस्थीतान् पिब उवा देवादिविस्पृशेन्द्रभायुः वामहे अस्य सोमस्य पीतये इन्द्रवायुमनोजुमाविप्राहवन्तभूतये सहस्राक्षाधियस्पति मित्रम् वयम् हवामहे वरुणम् सोमापीतये यज्ञानाभूतलक्षसा ऋते नया वृता वृथा ऋतस्य ज्योतिषस्पति का मित्रा वरुणाहुवे वरुणः प्राविता भूवन्मित्रो विश्वाभिरूतिभिः करतान्नः सुराधसः मरुत्पन्तम् हवामहरिन्द्रमा सोमापीतये सयोर्गणेन जृम्पतु इन्द्रज्येष्ठामरुद्गणा देवा सः पूषरादयः विश्वे मम श्रुताहमम् हतभृत्रम् सुदानमरिन्द्रेण सहसा युजा मानो दुःसंसा ईशर विश्वान् देवाङ्घवामहे मरुतः सोमपीतये उग्राहि वृष्णीमातरः जयतामिव दन्यतुर्मरुता मेति धृष्णुया यच्छुभम् यातना नरः हस्काराद्विद्युतस्पर्यतो जाता बन्धुनः मरुतो मृणयन्तु नः आपोषम् चित्रपरिहिणमाघृणे धरुणम् दिवः आजा नष्टम् यथा पशुम् पूषा राजा नमाघृणिरपगूढम् गुहाहिलम् अविन्दच्चित्रपरिहिणम् उतो समक्यमिन्दो भिष्टुक्तानुशेषीधत् गोभिर्यवन्न चर्कृषत्
अम्बयो यन्त्यध्वभिर्गामयो अध्वरीयता पृञ्जतेर्मधुनापयाः अमूर्यावुपसूर्येयाभिर्वासूर्यः सह सानो हिन्वन्त्वध्वरम् अपो देवीरुपः पयेयत्र गावः पिबन्दिनः सिन्धुभ्यः कर्तम् भविः अप्स्वा अन्तरमृतमप्सुभेषजमपामुत प्रशस्तये देवा भवदवाजिनाः अप्सुभे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वसम्भुवमापश्च विश्वभेषजीः आपः प्रणीतभेषजम् वरूतम् तन्वे एवम ज्योत्कसूर्यम् गृहे इदमापप्रपाहत यत्किम् च दुरितम् मयि यद्वाहमभिरुद्रोह यद्वा सेपमुतामृतम् आपो अद्यान्वचारिषम् रसेन समगस्महि पयस्वानग्नागहितम् मासम् सृजवर्चसा सम्माग्ने वर्चसा सृजतम् प्रजया समायुषा विद्युर्मे अस्य देवा इन्द्रो विद्यात्सहर्षिभिः